अथ तृतीयः सर्गः। अथ त्रिभिः मुनिं विशिंशन् चतुर्भिः कलापकमाः तदुक्तम् द्वाभ्याम् युग्ममिति प्रोक्तम् त्रिभिः श्लोकैर्विशेषकम् कलापकम् चतुर्भिः स्यात् तदूर्ध्वम् कुलकम् स्मृतम् इति। ततश्शरच्चन्द्रकराभिरामैः उत्सर्पिभिः प्रांशुमिवांशुजालैः बिभ्राणमानीलरुचम् पिशङ्गीः जटास्तडित्वन्तमिवाम्बुवाहम्। तत इति ततः उपवेशानन्तरम् धर्मात्मजः युधिष्ठिरः शरच्चन्द्रकराभिरामैः आह्लादकैरित्यर्थः उत्सर्पिभिः ऊर्ध्वम् प्रसारिभिः अंशुजालैः प्रांशुम् उन्नतमिव स्थितमिति उत्प्रेक्षा। पुनः आनीलरुचम् कृष्णवर्णम् पिशङ्गीः पिङ्गलवर्णाः गौरादित्वात् ङीष् जटाः बिभ्राणम् धारयन्तम् अत एव तडित्वन्तम् विद्युद्युक्तम् अम्बुवाहमिव स्थितमिति उत्प्रेक्षा। प्रसादलक्ष्मीम् दधतम् समग्राम् वपुः प्रकर्षेण जनातिगेन प्रसह्य चेतस्सु समासजन्तम् असंस्तुतानामपि भावमार्द्रम्। प्रसादेति पुनः समग्राम् सम्पूर्णाम् प्रसादः सौम्यता तस्य लक्ष्मीम् सम्पदम् दधतम् अत एव जनमतिगच्छतीति जनातिगेन लोकातिशायिना। अन्येष्वपि दृश्यते इति डप्रत्ययः वपुःप्रकर्षेण आकारसम्पदा असंस्तुतानाम् अपरिचितानामपि व्यासोऽयमिति अजानतामपीत्यर्थः। संस्तवस्यात्परिचयः इत्यमरः चेतस्सु चित्तेषु आर्द्रम् स्नेहार्द्रम् भावम् अभिप्रायम् प्रसह्य बलात् समासजन्तम् लगयन्तमिति यावत् दंशसञ्जस्वञ्जाम् शपि इत्युपधायाः लोपः। प्रसन्नाकारेषु सर्वोऽपि स्निह्यतीति भावः। अनुद्धताकारतया विविक्ताम् तन्वन्तमन्तःकरणस्य वृत्तिम् माधुर्यविस्रम्भविशेषभाजा कृतोपसम्भाषमिवेक्षितेन। अनुद्धतेति पुनः अनुद्धताकारतया शान्ताकारत्वेन लिङ्गेन अन्तःकरणस्य वृत्तिम् विविक्ताम् पूताम् शान्तामिति यावत् विविक्तौ पूतविजनौ इत्यमरः तन्वन्तम् प्रकटयन्तम् आकृतिरेव अस्य चित्तशुद्धिम् कथयतीत्यर्थः। पुनः माधुर्यम् निसर्गसौम्यता विश्रम्भः विश्वासः समौ विश्रम्भविश्वासौ इत्यमरः तयोः विशेषम् अतिशयम् भजतीति तथोक्तेन ईक्षितेन दर्शनेनैव कृता उपसम्भाषा सम्भाषणम् येन तमिवेति उत्प्रेक्षा। दृष्टिविशेषेणैव उपसम्भाषमाणमिव स्थितमित्यर्थः। काशिकायाम् तु उपसम्भाषणमुपसान्त्वनम् इति भासनादिसूत्रे। धर्मात्मजो धर्मनिबन्धिनीनाम् प्रसूतिमेनः प्रणुदाम् श्रुतीनाम् हेतुम् तदभ्यागमने परिप्सुः सुखोपविष्टं मुनिमा बभाषे। धर्मेति पुनः धर्मं निबध्नन्तीति धर्मनिबन्धिनीनां अग्निहोत्रादि धर्मप्रतिपादिकानां एनः प्रणुदाम् अगच्छिदाम् क्विप् श्रुतीनां वेदानां श्रुतिस्त्री वेद आम्नायः इत्यमरः प्रसूतिं प्रभवं सुखेन उपविष्टं मुनिं तदभ्यागमने तस्य मुनेः आगमने हेतुं परीप्सुः जिज्ञासुः आप्नोतेः सन्नन्तात् उप्रत्ययः आप् ज्ञप्रुधामीत् इति ईकारः अत्र लोपोऽभ्यासस्य इत्यभ्यासलोपः आबभाषे उवाच अनाप्तपुण्योपचयैर्दुरापा फलस्य निर्धूतरजाः सवित्री तुल्या भवद्दर्शनसम्पदेशा हृष्टेर्दिवो वीतबलाः कायाः। अनाप्तेति अनाप्तपुण्योपचयैः अकृतपुण्यसङ्ग्रहैः दुरापा दुर्लभा फलस्य सवित्री श्रेयस्करी निर्धूतरजाः हतरजोगुणा अन्यत्र निरस्तधूलिः रजो रजोगुणे धूलौ परागार्तवयोरपि इति शाश्वतः एषा भवद्दर्शनसम्पत् सम्पत्तिः लाभ इति यावत् सम्पदादिभ्यः क्विपो भावार्थत्वात् वीतबलाहकायाः गतमेघायाः दिवः आकाशस्य सम्बन्धिन्याः वृष्टेः तुल्येति उपमालङ्कारः अनभ्रवृष्टिवत् अतर्कितोपपन्नं भवद्दर्शनं सर्वथा कस्यचिच्छ्रेयसो निदानमित्यर्थः वारि वहतीति बलाहकः पृषोदरादित्वात् साधुः। अद्य क्रियाः कामदुघाः क्रतूनां सत्याशिषः सम्प्रति भूमिदेवाः आसंश्रुतेरस्मि जगत्सु जातः त्वय्यागते यद्बहुमानपात्रम्। अद्येति अद्य क्रतूनां क्रियाः अनुष्ठानानि कामान् दुहन्तीति कामदुघाः फलदाः इत्यर्थः। दुहः कप् घश्च इति कप्रत्ययः घादेशश्च सम्प्रति अद्य भूमिदेवाः ब्राह्मणाः द्विजात्यग्रजन्मभूदेववाणवाः विप्रश्च ब्राह्मणः इत्यमरः सत्याशिषः जाताः ब्राह्मणाशिषः अद्य फलिताः इत्यर्थः। यत् यतः कारणात् त्वयि आगते सति त्वदागमनेन निमित्तेनेत्यर्थः अस्मीति अहमर्थे अव्ययम् अस्मीत्यस्मदर्थानुवादे अहमर्थेऽपि इति गणव्याख्याने दासे कृतागसि भवत्युचितः प्रभूणां पादप्रहार इति सुन्दरि नास्मि दूये इति प्रयोगाच्च आ संसृतेः आसंसारात् यावत् संसारमित्यर्थः। अभिविधा वाङ् विकल्पात् असमासः जगत्सु बहुमानपात्रं बहुयोग्यताभाजनं जातः सकलसत्कर्मफलभूतं त्वदागमनं येन मे जगन्मान्यतेति भावः। श्रियं विकर्षत्यपहन्त्यघानि श्रेयः परिस्नौति तनोति कीर्तिम् सन्दर्शनं लोकगुरोरमोघं तवात् आत्मयोनेरिव किं न धत्ते। श्रियमिति आत्मयोनेः ब्रह्मणः इव लोकगुरोः तव अमोघम् अविफलम् सन्दर्शनम् श्रियम् विकर्षति आकर्षति। अघानि दुःखानि अपहन्ति। अम्हो दुःखव्यसनेष्वघम् इत्यमरः। श्रेयः पुरुषार्थम् परिस्नौति स्रवति कीर्तिञ्च तनोति। किं बहुना किं न धत्ते किं न करोति सर्वं करोतीत्यर्थः। श्योतन्मयूखेऽपि हिमद्युतौ मे न निर्वृतं निर्वृतिमेति चक्षुः। समुज्झितज्ञातिवियोगखेदं त्वत्सन्निधावुच्छ्वसतीव चेतः। च्योतदिति हे भगवन् च्योतन्मयूखे सुधास्राविकारे हिमद्युतौ इन्दावपि विषये न निर्वृतम् नयर्थस्य न शब्दस्य सुप्सुपेति समासः। मे चक्षुः त्वत्सन्निधौ निर्वृतिम् सुखमेति। तथा चेतश्च समुज्झितज्ञातिवियोगखेदम् त्यक्तबन्धुविरहदुःखम् समुच्छ्वसतीव अनुपरोधेन प्राणितीवेति उत्प्रेक्षा। पूर्वार्धे तु निर्वृतिकारणे सत्यपि इन्दौ अनिर्वृतिकथनात् विशेषोक्तिः। तदुक्तम् तत्सामग्र्यामनिर्वृत्तिः विशेषोक्तिर्निगद्यते इति। निरास्पदम् प्रश्नकुतूहलित्वम् अस्मास्वधीनम् किमु निःस्पृहाणाम्। तथापि कल्याणकरीम् गिरम् ते माम् श्रोतुमिच्छा मुखरीकरोति। निरास्पदमिति प्रश्नकुतूहलित्वम् निरास्पदम्। त्वदागमनप्रयोजनप्रश्नः निरास्पदः इत्यर्थः। आस्पदम् प्रतिष्ठायाम् इति निपातः। प्रश्नानवकाशे हेतुमाह निःस्पृहाणाम् युष्मादृशामित्यर्थः। अस्मासु अधीनम् आयत्तम् किमु न किञ्चिदस्मत्तः लभ्यमित्यर्थः। आधारत्वविवक्षायाम् सप्तमी तथापि कल्याणकरीम् अस्मद्धितैकहेतुमित्यर्थः। निःस्पृहवृत्तेः पारार्थ्यादिति भावः। क्रुयो हेतु इति टप्रत्यये ङीप्। अतः ते गिरम् श्रोतुमिच्छा माम् मुखम् वाक् अस्य अस्तीति मुखरः निरन्तरभाषी। रप्रकरणे ख मुखकुञ्जेभ्य उपसङ्ख्यानम् इति रः। दुर्मुखे मुखराबद्धमुखौ इत्यमरः। ततः क्षिप्रत्ययः मुखरीकरोति व्याहारयतीत्यर्थः। निःस्पृहस्यापि ते वाक्यम् अस्मद्धितकरत्वात् श्रोतव्यमिति भावः। इत्युक्तवानुक्तिविशेषरम्यम् मनः समाधाय जयोपपत्तौ। उदारचेतागिरमित्युदाराम् द्वैपायनेनाभिदधे नरेन्द्रः। इतीति इति इत्थम् उक्तिविशेषरम्यम् उक्तिवैचित्र्यचारु यथा तथा उक्तवान्। उदारचेताः महामनाः नरेन्द्रः द्वैपायनेन व्यासेन द्वीपम् अयनम् स्थानम् जन्मभूमिः यस्य सः द्वीपायनः स एव द्वैपायनः तेन। प्रज्ञादिभ्यश्च इति स्वार्थे अन्प्रत्ययः न अपत्यार्थे नणादिभ्यः फक् तेष्वेव पाठात् बाधितार्थत्वाच्च जयोपपत्तौ मनः समाधाय जयसिद्धिमपेक्ष्य इत्यर्थः इति वक्ष्यमाणप्रकाराम् उदाराम् अर्थवतीम् गिरम् अभिदधे उक्तः दुहादित्वात् अप्रधाने कर्मणि लिट् प्रधानकर्मण्याख्येये लादीनाहुर्द्विकर्मणाम् अप्रधाने दुहादीनाम् ण्यन्ते कर्तुश्च कर्मणः इति वचनात्।